एष रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रस्तोत्री रत्नावली शर्मा। नेपाल प्रीमियर लीग नामाख्यायाः क्रिकेट क्रीडा श्रृंखलायाः प्रथम संस्करणस्य उपाधिः जनकपुर बोल्ड समूहेन विजितोऽस्ति। कीर्तिपुरवर्तिनी त्रिभुवन विश्वविद्यालयस्य क्रिकेट क्रीडा प्रांगणे पूर्वेद्युः क्रीडितायां क्रीडायां सुदूरपश्चिम रोयल्स क्रीडक समूहं पञ्चानां क्रीडकानां हापनात् पूर्वमेव पराजित्य जनकपुर बोल्ड्स क्रीडक समूहेन उपाधि विजितोऽस्ति। उपाधि विजेत्रा जनकपुर बोल्ड्स समूहेन उपाधिना सह एककोटि दशलक्षाणि च रूप्यकाणि प्राप्तानि वर्तन्ते। अन्तिम क्रीडायाः समापनस्य पश्चात् आयोजिते पुरस्कार वितरण कार्यक्रमे नेपाली कांग्रेस दलस्य सभापतिः पूर्व प्रधानमन्त्री च शेरबहादुर देउवा, नेकपा माओवादी केन्द्रस्य अध्यक्षः पुष्पकमल दाहाल प्रचण्डः, नेपाल क्रिकेट संघस्य अध्यक्षः चतुरबहादुर चन्द्रश्च संयुक्त रूपेण एककोटिः दशलक्षाणाञ्च रूप्यकाणां वित्त प्रपत्रं जनकपुर समूहस्य क्रिकेट प्रमुखाय कप्तान पदीयाय क्रीडकाय च आसिफ शेख इत्यस्मै अनिल सहाय च प्रादुः। युवा क्रीडा मन्त्री तेजुलाल चौधरी, उपविजेत्रे सुदूरपश्चिम रोयल्स क्रीडक क्रीडा समूहाय एकपञ्चाशत् रूप्यकाणां वित्त प्रपत्रं प्रादात्। तृतीय स्थानस्य कर्णाली एक्स समूहेन, चतुर्थ स्थानस्य चितवन राइनो समूहेन च क्रमशः पञ्चविंशति लक्ष्याणि रूप्यकाणि, पञ्चदश लक्ष्याणि च रूप्यकाणि प्राप्तानि वर्तन्ते। अत्रान्तरे राष्ट्रपतिना रामचन्द्र पौडेलेन प्रथम संस्करणस्य नेपाल प्रीमियर लीग नामाख्याया क्रिकेट क्रीडा श्रृंखलाया उपाधिं जेतुं सफलाय जनकपुर बोल्ड्स क्रीडक समूहाय वर्धापनं प्रदत्तं वर्तते। राष्ट्रपतिना पौडेलेन प्रतियोगितायां सहभागिभ्य सर्वेभ्य क्रीडक समूहेभ्यश्च शुभकामनां प्रदत्ता। आगामि संस्करणेषु सर्वैः अतिरिक्तं समीचीनं प्रदर्शनं विधास्यते इति विश्वासः व्यक्तोऽस्ति। एवमेव प्रधानमन्त्रिणा केपी शर्मा ओलिना, नेपाली कांग्रेस दलस्य सभापतिना शेरबहादुर देउवा भिदेन, माओवादी केन्द्रस्य अध्यक्षेण पुष्पकमल दाहाल प्रचण्डेन च उपाधिं जेतुं सफलाय जनकपुर क्रिकेट क्रीडा समूहाय वर्धापनं प्रदत्तमस्ति। प्रधानमन्त्री केपी शर्मा ओली निगदति सम्पूर्ण विश्वं शान्ते मार्गे अग्रे वर्धयितुं योगः ध्यानञ्च जीवन पद्धतेः रूपेण अवलम्बनीये। विश्व ध्यान दिवसस्य अवसरे ह्य काष्ठमण्डपस्य टुडीखेल स्थानवर्तिनी सैनिक मञ्चे आयोजितं कार्यक्रमं सम्बोधयन् प्रधानमन्त्री ओली युद्धं द्वन्द्वञ्च त्यक्त्वा अग्रे वर्धनीयं चेत् अनुकूल चिन्तनेन सह ध्यानस्य योगस्य च अवलम्बनस्य आवश्यकतां प्रादर्शयत्। प्रधानमन्त्री ओली योगस्य ध्यानस्य च विद्यालयेषु युवसन्ततौ च प्रापणस्य आवश्यकता अस्ति इति प्रत्यपादयत्। तदवसरे स्वामिना अरूणेन, सन्तोष केडिया इत्यनेन, एलपी भानुशर्मणा च ध्यानस्य विभिन्नाः अभ्यासाः कारिताः आसन्। प्रधानमन्त्री केपी शर्मा ओली निगदति देशः समृद्धिर्दिशि अग्रे वर्धमानोऽस्ति। नेपाल जेसिस संस्थायाः एकपञ्चाशत्तमस्य राष्ट्रिय महाधिवेशनस्य ह्य इटहरी नगरे उद्घाटनं विदधानः प्रधानमन्त्री ओली देशस्य राजनैतिक व्यवस्थायां परिवर्तनस्य अनन्तरं सामाजिकार्थिक क्षेत्रेषु बहवः सुधाराः सम्भूताः सन्तीति प्रावोचत्। प्रधानमन्त्री ओली राजनैतिक परिवर्तनात् पूर्वं विहिते पूर्वाधार विकासे तदनु आर्थिक विकासे वृत्त्युपार्जनस्य क्षेत्रे च व्यापकं परिवर्तनं सम्भूतमस्तीति उदैरयत्। तदवसरे प्रधानमन्त्री ओली युव महिलानां क्षमताया विकासाय जेसिस संस्थया निर्व्यूढाया भूमिकाया प्रशंसामकरोत्। दिवसत्रये संचल्यमानाधिवेशनेन नूतनं नेतृत्वं चेष्यते। सर्वकारेण प्रत्येकं पालिका विपद संकट न्यूनीकरण दृष्ट्या व्यवस्थिता सक्षमा सबला च विधास्यते। गृह मन्त्रालयान्तर्गतेन राष्ट्रिय विपद संकट न्यूनीकरण प्राधिकरणेन तादृशान् स्थानीय स्तरान् विपद न्यूनीकरण सन्दर्भे सबलान् विधातुम् आवश्यक सामग्रीं प्रदाय सहयोगो विधास्यते इति प्राधिकरणस्य सहसचिवः डाक्टर विश्वकुमार भूषालः असूचयत्। डाक्टर भूषालः विपद व्यवस्थापन दृष्ट्या पालिकासु न्यूनतमान् मानदण्डान् प्रापयितुम् आवश्यकं पूर्वकार्यं विहितमस्ति इति अज्ञापयत्। संचार र सूचना प्रविधि मन्त्री पृथ्वी सुब्बा गुरूङ, राजनीतिक अस्थिरतात राष्ट्रम संरक्षितम् नेपाली कांग्रेस नेकपा एमाले दलयोः सहकारेण वर्तमान सर्वकारः संघटितोऽस्ति स्पष्टयति। कास्की जनपदस्य माछापुच्छ्रे ग्रामपालिकायाः षष्ठ वडा क्षेत्रस्थितस्य बराह माध्यमिक विद्यालयस्य सप्तपञ्चाशत्तमस्य वार्षिकोत्सवस्य प्राविधिक शिक्षा रजतवर्ष समारोहस्य च ह्य उद्घाटनं विदधानः मन्त्री गुरूङ भूयोभूयः सर्वकार परिवर्तनेन जनतायां नैराश्यं वर्धितम् आसीदिति अवदत्। सर्वकारस्य प्रवक्ता मन्त्री गुरूङ विकास निर्माण कर्मणि प्रतिकूला नीति अधिनियमान विधिञ्च परिमार्ज्य सर्वकार अग्रेसरतीति प्रावोचत्। मादी मर्स्याङ्दी तटीय मार्गान्तर्गतस्य सिस्नेरी बिर्ता रम्घा स्थानात् मान्टीहटिया स्थान योजक मार्गस्य निर्माण कार्यम् पुनः प्रारब्धमस्ति। दमौली मार्ग निर्माण कार्यालयस्य अनुसारेण षड्भि मासै विच्छिन्नम् निर्माण कार्यम् निर्मातृ संस्थया सह पुनः सम्पर्कम् संस्थाप्य पुनः अग्रे वर्धितमस्ति। संस्कृति पर्यटन नागरिकोड्डयन मन्त्री बद्री प्रसाद पाण्डे पर्यटकीय गतिविधिन् इतोपि सफलान् विधातुम् आन्तर पर्यटनम् वर्धयितुम् बलम् ददाति। ह्य काभ्रेपलाञ्चोक जनपदस्य पनौती स्थाने आयोजिते कार्यक्रमे मन्त्री पाण्डे विविधता पूर्णे नेपाले पर्यटन क्षेत्रमेव वैदेशिक पर्यटकानाम् आकर्षणस्य प्रमुख माध्यमो वर्तते इति अवदत्। मन्त्री पाण्डे विश्व सम्पद सूच्यां पञ्जीकर्तुं प्रयासरतम् ऐतिहासिकं पुरातात्विकं पनौती नगरं पञ्जीकरण योग्यं विधातुं मन्त्रालयेन सहयोग करिष्यते इति प्रतिबद्धताम् अभिव्यनक। नेपाल तैल निगमेन अस्यैव पौषमासस्य अन्तिम सप्ताहात् भारतस्य मोतिहारी स्थानात् तैल नलिकायाः माध्यमेन डिजल तैलेन्धनेन सहैव पेट्रोल तैलेन्धनं मृत्तिका तैलं च आनेतुं पूर्व कार्यम् विहितमस्ति। निगमेन 67+2000 वैक्रमाब्दात् नलिकायाः माध्यमेन मोतिहारी स्थानाद् अमलेखगंज स्थानम् यावत् डिजल तैलेन्धनम् आनीयमानम् वर्तते। पेट्रोल तैलेन्धनम् डिजल तैलेन्धनम् मृत्तिका तैलम् च आनेतुम् समर्थत्वेन निर्मितेन बहुद्देशीय नलिका माध्यमेन पेट्रोल तैलेन्धनस्य मृत्तिका तैलस्य च आनयनस्य कार्यम् अन्तिमे चरणे प्राप्तम् अस्ति इति निगमस्य मधेश प्रादेशिक कार्यालयेन ज्ञापितम् वर्तते। बाजुरा जनपदे ह्य प्रातः दुरापन्नात् भूकम्पात् 15 गृहाणि पूर्णतया क्षतिग्रस्तानि सन्ति। भूकम्पात् शताधिकेषु गृहेषु क्षतिः सम्भूता अस्ति, तेषु 15 गृहाणि स्थातुम् अयोग्यत्वेन क्षतिग्रस्तानि सन्ति इति बाजुरा जनपदस्य प्रमुख जनपदाधिकारी मेघनाथ उपाध्यायः असूचयत्। भूकम्पे मानवीय क्षतिर्न सम्भूता अस्ति, उद्धारस्य सहयोगस्य च कार्यम् प्रारब्धम् वर्तते इति स प्रमुख जनपदाधिकारी उपाध्यायः अज्ञापयत्। बाजुरा जनपदस्य जगन्नाथ ग्रामपालिकायाः गोत्री स्थानम् केन्द्रबिन्दुम् विधाय ह्य प्रातः 15.2 रेक्टरमितः भूकम्पः दुरापन्नः आसीत् इति समाचारः।